ब्रह्मादयसुरगणामुनयोऽथ सिद्धाः सत्त्वैकतानगतयो वचसां प्रवाहैः नाराधितुं पुरुगणैरधुनापि पिप्रुः किं तोष्टुमर्हति स मे हरिरुग्रजातेः मन्ये धनाभिजनरूपतपःश्रुतौ च तेजः प्रभावबलपौरुषबुद्धियोगाः नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तु तोष भगवान् गजयूथपाय विप्राद्विषड्गुणयुतादरविन्दनाभ पादारविन्दविमुखाच्छ्वपचं वरिष्ठम् मन्ये तदर्पितमनोवचने हितार्थ प्राणं पुनाति सकुल न तु भूरिमानः नैवात्मनः प्रभुरयं निजलाभपूर्णो मानं जनादविदुषः करुणो वृणीते यद्यज्जनो भगवते विदधीतमानम् तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः तस्मादहं विगतविक्लव ईश्वरस्य सर्वात्मना महि गृणामि यथा मनीषम् नीचो जया गुणविसर्गमनुप्रविष्टः भूयेत हीन हि पुमाननुवर्णितेन सर्वे यमी विधिकरास्तव सत्त्वधाम्नो ब्रह्मादयो वयमिवेश न चोद्विजन्तः क्षेमाय भूतय उतात्मसुखाय चास्य विक्रीडितं भगवतो रुचिरावतारैः यच्छमन्युमसुरस्य हतस्त्वयाद्य मोदेत साधुरपि वृश्चिकसर्पहत्या लोकाश निर्वृतिमितः प्रतियन्ति सर्वे रूपं नृसिंहविभयाय जनाः स्मरन्ति नाहं बिभेम्यजितेति भनानकास्य जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् आन्त्रस्रजक्षतजकेशरशङ्कुकर्णान् निर्राधभीतदिगिभादरिभिन्नखाग्रात् त्रस्तोऽस्म्यहं कृपणवत्सलदुःसहोग्र संसारचक्रकदनाद्ग्रसतां प्रणीतः बद्धस्वकर्मभिरुषत्तमतेऽङ्घ्रिमूलम् प्रीतोपवर्गशरणं वयसे कदा नु यस्मात् प्रिया प्रियवियोगसंयोगजन्म शोकाग्निना सकलयोनिषु दह्यमानः दुःखौषधं तदपि दुःखमतद्धियाहम् भूमन् भ्रमामि वद मे तव दास्य योगम् सोऽहं प्रियस्य सुहृदः प्ररदेवताया लीलाकथास्तव नृसिंहविरिञ्चगीताः अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो दुर्गाणि ते पदयुगालय हंससङ्गः बालस्य नेह शरणं पितरौ नृसिंह नार्दस्य चागदमुदन्वति मज्जतो नौः तप्तस्य तत्प्रतिविधीर्य इहाञ्जसेष्ट तावद्विभूतनुमृतां त्वदुपेक्षितानां यस्मिन् यतो यर्हि येन च यस्य यस्माद् यस्मै यथा यदुतयस्त्वपरः परो वा आवः करोति विकरोति पृथक् स्वभावः सञ्चोदितस्तदखिलं भवतः स्वरूपम्। माया मनसृजति कर्ममयं बलीयः कालेन चोदित गुणानुमतेन पुंसः छन्दोमयं यदजयार्पित षोडशारम् संसारचक्रमजकोटितरे त्वदन्यः सत्त्वं हि नित्यविजितात्मगुणस्वधाम्ना कालो वशीकृतविसृज्य विसर्गशक्तिः चक्रे सुसृष्टमजयेश्वरषोडशारे निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् दृष्टा मया दिवि विभोऽखिलधीष्ण्यपानाम् आयुः श्रियो विभव इच्छति याञ्जनोऽयम् हे स्मत्पितुः कुपितहास्य विजृम्भितभ्रो विस्फूर्जितेन लुलिता स तु ते निरस्तः तस्मादतस्तमुदुनामशिशोज्ञा आयुश्रियविभवमैन्द्रियमाविरिञ्चात् नेच्छामि ते विलुलितानुर्विक्रमेण कालात्मनोपनयमां निजभृत्यपार्श्वम् कुत्राशिषः सुषिदिसुखा मृगतृष्णिरूपाः क्वेदं कलेवरमशेषरुजां विरोहः निर्विद्यते न तु जनो यदपीति विद्वान् कामानलं मधुलवैशमयं दुरापैः वाहं रजः प्रभव ईशतमोऽधिकेऽस्मिन् जातः सुरेतरकुले क्वतवानुकम्पा न ब्रह्मणा न तु भवस्य न वैरमाया यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः नैषा परावरमतिर्भवतो ननु स्याद् जन्तोर्यथात्मसुहृदो जगतस्तथापि संसेवया सुरतरोरिव ते प्रसादः सेवानुरूपमुदयो न परावरत्वम् एवं जनं निपतितं प्रभवाहि कूपे कामाभिकाममनुयः प्रपतन् प्रसङ्गात् कृत्वात्मसात् सुरर्षिणा भगवन् गृहीतः सोऽहं कथं नु विसृजे तव भृत्यसेवां मत्प्राणरक्षमनन्तपितुर्वदश्य मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुं खड्गं प्रभुर्य यदवोच सदद्विधित्सु वामीश्वरो मदपरोवतु कं हरामि एकस्त्वमेव जगदेतदमुष्ययत्वम् आद्यन्तयो पृथगवस्यसि मध्यतश्च सृष्ट्वा गुणव्यतिकरं निजमाययेदम् ध्यानेव तैरवसितस्तदनुप्रविष्टः त्वं वा इदं सदसदीश भवांस्ततोऽन्यो माया यदात्मपरबुद्धिरियं ह्यपार्था यद्यस्य जन्मनिधनस्थितिरीक्षणं च तद्वै तदेव वसुकालवदष्टितर्वोः न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये शेषेत्मना निजसुखानुभवो निरीहः योगेन मीलितदृगात्मनिपीतनिद्रः तूर्यो स्थितो न तु तमो न गुणांश्च युङ्क्षे तस्यैव ते वपुरिदं निजकालशक्त्या सञ्चोदितप्रकृतिधर्मण आत्मगूढम् अम्भस्यनन्तशयनाद्विरमत्समाधेर्नाभेरभूत्स्वकणिकावटवन्महाब्जम् तत्सम्भवः कविरतोऽन्यदपश्यमानस्त्वां बीजमात्मनि ततं स बहिर्विचिन्त्य नाविन्ददब्जशतमप्सु निमज्जमानो चातेंकुरे कथमुहोपलभेत बीजम् सत्वात्मयो निरतिविस्मित आश्रितोब्जम् कालेन तीव्र तपसा परिशुद्ध भावः त्वामात्मनीश भुवि गन्धमिवाति सूक्ष्मम् भूतेन्द्रियाशयमये विततं ददर्श एवं सहस्रवदनाङ्घ्रिशिरः करोरु नासाद्यकर्णनयनाभरणायुधाढ्यम् मायामयं सदुपलक्षितसन्निवेशम् दृष्ट्वा महापुरुषमापमुदं विरिञ्चः तस्मै भवान् हयशिरस्तनुवं हि बिभ्रत् वेदद्रुहौ अतिबलौ मधुकैटभाख्यौ हत्वा नयश्रुतिगणाश्च रजस्तमश्च सत्वं तव प्रियतमां तनुमामनन्ति इत्थं नृतिर्यघृषिदेव जशावतारैर्लोकान् विभावयसि हंसि जगत्प्रतीपान् धर्मं महापुरुषपासि युगानुवृत्तं छन्नः कलौ यदभवस्त्रियुगोऽथ सत्त्वम् नैतन्मनस्तव कथासु विकुण्ठनाथ संप्रीयते दुरितदुष्टमसाधु तीव्रं कामातुरं हर्षशोकभयैषणार्थम् तस्मिन् कथं तव गतिं विमृशामि दीनः जिह्वै कतोच्युत विकर्षति मा वितृप्ता शिष्णोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् प्राणोऽन्यतश्च पलदृक्व च कर्मशक्तिर्भव्यः सपत्न्य इव गेहपतिं लुनन्ति एवं स्वकर्म पतितं भव वैतरण्याम् अन्योन्यजन्ममरणाशनभीतभीतं पश्यञ्जनं स्वपरविग्रहवैरमैत्रं हन्तेति पारचरपिप्रुहि मूढमद्य ओन्वत्र ते अखिलगुरो भगवन्प्रयास उत्तारणेऽस्य भवसम्भवलोपहेतोः मूढेषु वै महदनुग्रह आर्तबन्धो किं तेन ते प्रियजनाननुसेवतां नः नैवो द्विजे परदुरत्यय वैतरण्यास्त्वद्वीर्यगायन महामृतमग्नचित्तः शोचे ततो विमुखचेतस इन्द्रियार्थम् आया सुखाय भरमुद्वहतो विमूढान् प्रायेण देवमुनयः स्वविमुक्तिकामा मौनं जरन्ति विजनेन परार्थनिष्ठाः नैतान् विहाय कृपणान् विमुक्ष एको धान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये यन्मैथुनादिगृहमेधि सुखं हि तुच्छं कण्डूयनेन करयोरिव दुःखदुःखं तृप्यन्ति नेह कृपणा बहुदुःखभाजः कण्डूतिवन्मनसिजं विषहेत धीरः मौनव्रतश्रुततपोऽध्ययनं स्वधर्म व्याख्यारहो जप समाधय आपवर्ग्याः प्रायः परं पुरुषते त्वजितेन्द्रियाणां वार्ता भवन्त्युत न वात्र तु दाम्भिकानां रूपे इमे सदसति तव वेदसृष्टे बीजाङ्कुरौ विवन चान्यदरूपकस्य युक्ता समक्षममुभयत्र विचक्षते त्वां योगेन वह्निमिवदार्शुनान्यतः स्यात् त्वं वायुरग्निरवनिर्वियदम्बुमात्राः प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च सर्वं त्वमेव सगुणो विगुणश्च भूमन् नान्यत्वदस्त्यपि मनो वचसा निरुक्तम् नैते गुणान गुणिनो महदादयो ये सर्वे मनः प्रभृतयः सह देवमर्त्याः आद्यन्तवन्त उरुगाय विदन्ति हित्वा एवं विमृश्य सुधियो विरमन्ति शब्दात् तत्तेर्हत्तम नमः स्तुतिकर्म पूजाः कर्म स्मृतिश्चरणयो श्रवण्यं कथायां संसेवया त्वयि विनेति षडङ्गया किं भक्तिश्चरं परमहंसगतो लभेत हरे कृष्ण 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 हरे 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 राम हरे राम 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 हरे हरे श्री प्रह्लाद स्तुति की जय श्री नरसिंहदेव भगवान की जय भक्तराज श्री प्रह्लाद महाराज की जय
You'll be alone, and I'll... जय राधा माधव कुंज विहारी गोपीजन वल्लभ गिरि